सर्वेषां स्वागतं श्लोकेन आरम्भं कुर्मः अस्तु भगिनि
शुक्लां भरदहं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये सरस्वति नमस्तुभ्यं वरदे कामरूपिणि विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुर्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहैः ॐ शान्ति शान्ति शान्तिः भगिनी भवती वदति वा
अस्तु रामो राजमणिः सदा विजयते रामं रमेशं भजे रामेनाभिहता निशाचरचमूः रामाय तस्मै नमः रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहं रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर धन्यवादः सो एतस्मिन् श्लोके सप्तविभक्तयः अपि सन्ति खलु रामः राजमणिः सदा विजयते रामं रमेशं भजे रामेण अभिहता निशाचरचमूः रामाय तस्मै नमः रामात् नास्ति परायणं परतरं रामस्य दासः अहम् रामे चित्तलया सदा भवतु मे भो राम सम्बोधन बहु सुन्दरम् अस्ति अस्तु अद्य एकं सुभाषितं दृष्ट्वा अग्रे गच्छामः सुभाषितम् एवम् अस्ति भाषासु मुख्या मधुरा दिव्या गीर्वाणी भारती इति सो अत्र क्रियापदं नास्ति परन्तु अस्ति इति योजयामः चेत् गीर्वाणभारती अस्ति भारती इत्युक्ते वचनम् एतादृशं वचनम् अथवा किमपि वदामः तत् वचनं गीर्वाण इत्युक्ते उत्तम दिव्य दिव्या अपि समीचीन समानार्थकपद देवभाषा दिव्यभाषा उत्तमभाषा पवित्रा भाषा मधुरा मधुरा श्रोतुं मधुरम् अस्ति मृदु मृदुभाषा मुख्यभाषा मुख्यभाषा इति वदामः चेत् अस्माकं मातृभाषा अस्ति तत् सर्वं संस्कृततः बहूनि पदानि स्वीकृतानि सन्ति संस्कृततः पदानि स्वीकृतानि सन्ति इति भाषासु सर्वासु भाषासु सप्तमीविभक्ति अन्य सर्वत्र प्रथमा विभक्ति मुख्या मधुरा गीर्वाणी भारती इति भारती इति स्त्रीलिङ्गपदम् अतः मुख्या मधुरा दिव्या गीर्वाण इति गीर्वाणभाषा परन्तु संस्कृतम् एवम् अस्ति मधुरा मुख्या दिव्या गीर्वाणा भारती इति अस्ति गीर्वाणभारती इति वदामः चेत् संस्कृतभाषा इति परन्तु तत्र अपि अतिमधुरम् अस्ति काव्यं नपुंसकलिङ्गम् अतः मधुरं काव्यम् अतिमधुरम् अस्ति. किमर्थम् अतिमधुरम् अस्ति इति ते वदन्ति इत्युक्ते, तत्र काव्यम् इति वदामः चेत् तत्र विवरणम् अस्ति. विवरणम् इति वदामः चेत् तत्र विशेषणविशेषभावः अस्ति. अन्य किमपि बहु सुन्दरतया श्रोतुम् अस्ति, मधुरा अस्ति, काव्यं मधुरम् अस्ति. तस्मात् अपि काव्यम् अतिमधुरं, तस्मात् अतिमधुरम् अस्ति सुभाषितम् इति. किमर्थम् इत्युक्ते वाक्यद्वयेन बहूनि मधुराणि, किं वदामः, मधुराणि वाक्यानि सन्ति. सुभाषितम् इति वदामः चेत् वाक्यद्वयं वा अथवा वाक्य चतुष्टयं वा एव भवति, परन्तु मुख्यविषयः तत्र प्रतिपादितम् अस्ति. अतः संस्कृतभाषा इति मधुरा भाषा. तत्त्व संस्कृतभाषायां मधुरम् अस्ति काव्यं, ततोपि मधुरम् अस्ति सुभाषितम् इति सुभाषितं वदति. प्रश्नः अस्ति वा? नास्ति इति मन्ये. अस्तु
भगिनि, दिस् इस् बेसिकलि सुभाषितं प्रेसिङ्ग् सुभाषितम्.
आम् करेक्ट्, सुभाषितम् इस् प्रेसिङ्ग् सुभाषितम्. अस्तु, चाट् मध्ये किम् अस्ति? सविता भगिनि, स्वागतं भगिनि. अस्तु, अग्रे पश्यामः. अन्यसुभाषितम् अग्रिमवर्गे पश्यामः, इदानीं नास्ति. अद्य वयं कथां पठामः वा? कथा कुत्र अस्ति? नष्टः पृष्टः. एकनिमिषं महोदय, तत्र गच्छामि. अहं चिन्तितवती अस्ति इति, परन्तु दृश्यते वा अत्र?
न भगिनि, श्लोकम् एव.
अस्तु अस्तु,
इदानीं दृश्यते.
अस्तु, नष्टः पृष्टः. नष्टः इति वदामः चेत् अर्थद्वयमस्ति. लुप्तः इत्युक्ते लास्ट् अपि अस्ति. नष्टः इत्युक्ते ब्रोकन्, परन्तु अर्थ समानं खलु, गतम् इति. अस्माकं हस्ते नास्ति, उपयोगाय न भवति इति. घटः वयं जानीमः, घटः. पिष्टः इत्युक्ते घटे पिष्टः अस्ति. पिष्टः इति वदामः चेत् शुष्कपिष्टः अपि अस्ति, आर्द्रपिष्टः अपि अस्ति. शुष्क इत्युक्ते ड्रै, पिष्टः इत्युक्ते पौडर् अथवा पेस्ट् अपि पिष्ट एव. उदाहरणार्थं दोसपिष्ट इति वदामः चेत् आर्द्रम् अस्ति, वेट्, आर्द्रपिष्टः. परन्तु रोटिका पिष्ट इति वदामः चेत् ड्रै अस्ति. सो अस्तु, का अत्र आरम्भं करोति? सागरी भगिनी करोति वा?
आं भगिनि, नष्टः पिष्टघटः. कस्मिंश्चित् नगरे कश्चन दरिद्रः ब्राह्मणः वसति स्म. सः भिक्षाटनेन जीवनं करोति स्म. कदाचित् सः पिष्टेन पूर्णम् एकं घटं प्राप्तवान्. तं घटं नागदन्ते अवलम्ब्य तस्य अधः उपविश्य सः एकदृष्ट्या घटं घटमेव पश्यति स्म.
पश्यति स्म. अत्र कठिनपदानि अस्ति वा? भिक्षाटने भिक्षातम् अटनं करोति, गृहं गृहं गत्वा भिक्षां देहि, भवती भिक्षां देहि इति वदति खलु, तादृशं भिक्षा भिक्षाटने भिक्षार्थम् अटनं कृत्वा तेन जीवनं करोति स्म. इत्युक्ते सः
याचकं कृत्वा,
याचकं कृत्वा इत्युक्ते सः अन्य कार्यं न करोति, एवमेव भिक्षां भिक्षाटनेन. भगिनि,
अटनं भिक्षा अटनेन, there are two words there, right?
Bhikshartam atanena.
Atanena is roaming.
Bhikshartanena jeevanam karoti sma. Itikte ekada kadachet sah pishtena purnam ekam ghatam. So atre pishta ghatah iti badamah chet pishtena purnam ghatah. कृष्णेन पूर्णः इति भवति, अत्र प्रथमा विभक्ति, अतः कृष्णेन पूर्णः घटः. अस्तु चेत् ध्वनि आगच्छति. सागरि भगिनि, अहं म्यूट् करिष्यामि. अस्तु, कृष्णेन पूर्णः घटः, समस्तपदम् इति वदामः खलु, समस्तपदम् इत्युक्ते पदत्रयं वा द्वयं वा मिलित्वा एकपदं भवति. सो अत्र प्रथम द्वितीय अथवा किमपि पदानि सन्ति चेत्, कानिचन पदानि सन्ति चेत् तेषां विभक्तिरूपं न दृश्यते. सो अत्र पिष्टेन पूर्णः घटः इति पदमस्ति, परन्तु मिलित्वा पिष्टघटः अथवा पिष्टपूर्णघटः एवं वक्तुं शक्नुमः. अत्र अपि भिक्षाटनेन भिक्षार्थम् अटनेन भिक्षाटनेन इति एकपदं भवति. अस्तु, पिष्टेन पूर्णम् एकं घटं प्राप्तवान्, तं घटं नागदन्ते, नागदन्ते इत्युक्ते हुक् इति, नागदन्तः एवम् अस्ति खलु, नागदन्तः नागदन्ते अवलम्ब्य, अवलम्ब्य इत्युक्ते लैक् हेङ्गिङ्ग् इति, अवलम्ब्य तस्य अधः उपविश्य सः एकदृष्ट्या, एकदृष्ट्या इत्युक्ते अन्य कुत्रापि सः न पश्यति, अत्र एव पश्यति, एकदृष्ट्या घटम् एव पश्यति. सो अत्र घटम् एव, सो अत्र सन्धि एव अस्ति, समासः नास्ति. घटम् एव मकार एकार योजे योगे मे भवति, घटमेव पश्यति स्म. अस्तु, अन्य किमपि नास्ति.
हौ डु यु रेकग्नैज़्
समा, अत्र पश्यामः चेत् घटम् एव अस्ति. सो अत्र सन्धि विभक्तिका अत्र घटम् एव इति वदामः चेत्
घटं
घटम् एव खलु, घटम् एव तादृशमेव. सो अत्र सन्धेः विभक्तेः लुप्तं नास्ति. सो द विभक्ति इस् नाट् लास्ट्.
Oh, okay.
So, atra bhikshatanena, bhikshartam atanena.
That also is a sandhi there?
No, there is sandhi, but the vibhakti is gone here.
But not in ghatam eva?
No. Ghatam eva is ghatam eva. Tadrisham eva asti.
Oh, so there it is bhiksha atanena.
So if I just say bhiksha atanena, does it make sense? No.
Bhikshatanena.
Okay. Bhikshatanena. Even then it doesn't make sense. Bhikshartam atanena. Only then it will make sense.
So is that a samasapadam?
Samasapadam. Bhikshartam atanena. When we say like that, then it makes sense.
I see.
Okay, I open this so I can write here.
Excuse me, what is Nagadanda?
Nagadanta is like a hook, Mahodaya, Atra. Hook.
Okay.
Like that. So, sarpasya dantaha eva masti kalu. Nagadanta. Avalambya ittikte vrikshaha asti, vrikshe phalani santi, eka palam atra avalambya asti.
Namaste, Bhagini.
Swagatam, Bhagini. Namaste.
What is the word Purnam over here? Kadachit saha pishtena Purnam. Pishtena means Tritiya Vibhakti, ne?
Pishtena means Tritiya. Pishtena Purnam. So, atra ghatam asti. Ghatasya antaha pishtam asti. So, ataha ghatam Purnam asti. Ghatam Kena Purnam Asti, Pishtena Purnam Asti.
Mm-hmm.
Parantu, I said the wrong word. Pishtena Purnaha Asti Ghataha.
Mm-hmm.
Pishtena
Purnaha means filled.
Filled with
flower. Filled with flower, yeah.
Pishtena is flower, okay.
Pishtaha means flower, Pishta.
Oh, okay.
So we call this the flower pot. Not the flower, but flower pot. F-L-O-U-R, flower pot.
Okay.
So, atra, Nagadante avalambya tasya adaha upavishya taha eka drishtya. Itikte anya kutrapi manaha apicha netram na gacchati. Tatra eva pashyati. Astu. Swasya vakye vaktum prayatnam karoti va? Sagari bhagini va anya kopi?
Aam bhagini karomi.
Karoti.
Eka daritraha brahmanaha asit. Saha atanam krutva एकः पृष्ठेन पूर्वं घटं सङ्गृहीतवान्
उत्तमं
तं घटं नाग ऐ डोण्ट् नो हौ टु से दिस् इन् अदर् वर्ड्स् Nagadante avalambya avalambitavan tat gatam adaha upavishya saha gatam eva drishtavan
uttamam
kimapi na kritavan.
अस्तु किमपि न कृतम् अस्तु अन्य किमपि न कृतं घटस्य अधः इति वदामश्चेत् घटस्य
घटस्य अधः
सम्यक् घटस्य अधः अस्तु परमेश्वर महोदय अग्रे
एकं नगरे
एकस्मिन् नगरे
केनाट् बि एकम्
सो अत्र अत्रापि समस्तपदं पश्यतु सो यु केन् से एकनगरे इन् वन् वर्ड् लैक् दिस् सो दिस् बिकम्स् अ समस्तपदम्
एकनगरे ओके
एकनगरे अथवा एकस्मिन् नगरे
दरिद्रः ब्राह्मण
भवती अपि वदतु वदतु एकस्मिन् नगरे
ekanagare ekasmin ekasmin is what ekasmin means
in
ekasmin is in ekanagare ekasmin brahmanah
so then you cannot say ekasmin brahmanah kalo ekah brahmanah because brahmanah iti prathama vibhakti roopam so atah ekah prathama vibhakti roopam
okay
ekah brahmanah vasati sma
sah daridrah asit etas etas no I want to say that's why
अतः
जीवनार्थं भिक्षाटनेन
गृहं गृहं गत्वा
I think I'm making is it getting complicated
yeah
सः भिक्षार्थं अटनं करोति
सम्यक् सम्यक् अग्रे
कदाचित् सः इष्टेन पूर्णम् एकं घटं प्राप्तवान् ऐ डिन्ट् अण्डर्स्टाण्ड् द सेण्टेन्स्
सो एकदा
एकदा
सो इफ् ऐ वाण्ट् टु से इट् ऐ केन् से इट् लैक् दिस् एकदा अन्येकगृहं गतवान् गृहं गतवान् गृहतः एकं घटं प्राप्तवान् घटे पिष्टम् आसीत् घटे पिष्टम् आसीत् तत् दृष्ट्वा सः आनन्दम् अनुभूतवान् So we can just make up something.
Then it is tam ghatam nagadante avalambya tasya adhaha upavishya saha ekadrishtya ghatameva pashyati sma.
Saha anandena ghatameva pashyati sma. Or drishtva eva upavishtavan. Tatra eva upavishtavan.
I didn't understand the sentence. What is the sentence saying? Tam ghatam nagadan. Tam means in that.
No, tam ghatam means he took that ghatam. Dvitiya vibhakti. Tam ghatam nagadante. Nagadanta hai tukte hook. Nagadante avalambya. Hanging. After hanging, tasya adaha. Kasya adaha. Ghatasya adaha. Upavishya. Saha. Ekadrishtya. एकदृष्ट्या इत्युक्ते तं घटमेव पश्यति स्म अन्य किमपि न कृतवान् अन्य कुत्रापि न दृष्टवान्
कान्सन्ट्रेशन् हि वास् अब्सर्विङ्ग् द घटम्
अब्सर्विङ्ग् द घट
हि वास् वन् लुकिङ्ग् एट् इट्
वन् पायिण्टेड्लि एकदृष्ट्या
एकदृष्ट्या मीन्स् वन् पायिण्टेड्लि ओके
वन् पायिण्टेड्लि सिङ्गल् पायिण्टेड्लि लैक् दट्
एकदा रात्रौ सः चिन्तितवान् यदि देशे दुर्भिक्षः भवेत् तर्हि एतस्य शतरूप्यकाणां मूल्यं भवेत् तदा अहम् एतत् विक्रियतेन धनेन अजद्वयं क्रेष्यामि कालान्तरे तेन अजसमूहः एव भविष्यति
पर्याप्तं महोदय एतत् वदामि
एकदा रात्रौ सः चिन्तितवान् देशे दुर्भिक्षः आसीत् भवेत् तर्हि एतस्य रूपकन्या मूल्यं भवेत् तवेत् तर्हि एतस्य रूपकन्यकाणां मूल्यं भवत् मूल्यं
भवेत्
अहम् एतत् विक्रीय एघटं विक्रीय तेन धनेन अजद्वयं क्रीणामि कालान्तरे तेन अजसमूह एवं भविष्यति
अत्र दुर्भिक्षा इत्युक्ते फ्यामिन् इति अथवा संथिङ्ग् लैक् दट् फ्यामिन् इति सो रात्रौ रात्रिशब्दस्य सप्तमी विभक्ति एकदा रात्रौ सः चिन्तितवान् यदि देशे दुर्भिक्षः भवेत् भवेत् इति वदामः चेत् प्रायः अत्र यदि इति वदामः चेत् क्लासिक् अस्ति भवेत् इफ् इट् हेपेन्स् सो अत्र भवेत् भवेत् मीन्स् भवति वा न वा इति न जानामि परन्तु भवेत्
भगिनी
प्रायः मीन्स् बिफोर्
नो न प्रायः मीन्स् मे बि प्राबब्लि
प्रायः
इफ् मीन्स् लैक् इफ् इट् हेपन्स् लैक् देट् इफ् इफ् दिस् हेपन्स् देन्
घटस्य मूल्यं भवेत्
मूल्यम्
अधिकं भवेत्
अधिकं भवेत् शतरूप्यकाणि भवेत्
भवेत् तदा अहं घटं विक्रीय धनेन अजद्वयं क्रीणामि
अजद्वयं क्रीणामि
कालान्तरे बिद्दि टैम्स् मतलब् कालान्तरे
किञ्चित् कालस्य अनन्तरं
किञ्चित् कालस्य अनन्तरं तेन अजसमूहः भविष्यति
तेन इत्युक्ते तेन अजद्वयेन अजद्वयेन अजसमूहः एव भवेत् इत्युक्ते इत्युक्ते अर्थः कः अजसमूहः इत्युक्ते अजद्वयं दशद्वय दश दश वा विंशतिः वा इति अधिकसङ्ख्यात्मकं भवेत् भविष्यति अत्र भविष्यति इति वदति सः तत्र एव तस्य दोषः खलु
वाट् इस् अजद्वयं मीन्
अजः वदतु
अज इस् गुड्
आम्
ओके So he's saying he will buy two goats. Then with time, Ajas Samuhaha means?
They become a herd of many goats.
Many? Samuhaha?
Samuhaha means in general society, but it becomes a group.
Oh, okay.
Group. But in the animal thing, we call it herd, like that.
So that is two goats will become a lot of herd of goats.
Agre Sharada Bhagini.
Anantaram ajasamuham vikriya denuh kreshyami. Anantaram taah vikriya mahishihi taah vikriya ashvan cha kreshyami. तानपि विक्रीय यथेष्टं धनं सम्पादयिष्यामि बृहत् गृहं निर्मापयिष्यामि तदा कश्चित् ब्राह्मणः आगत्य रूपवतीं स्वकन्यां मह्यं दास्यति
अस्तु एतत् पर्यन्तं
अजसमूहं विक्री नामि धेनुः क्रीणामि
विक्रेष्य
अनन्तरं धेनुमपि विक्रीय महिषीं तद् क्रेष्यामि. महिषीमपि विक्रीय अश्वान् बहूनि अश्वान् क्रेष्यामि. अश्वान् अपि विक्रीय बहु धनं सम्पादयिष्यामि. बृहत् गृहं बिल्डिङ्ग् निर्मापयिष्यामि.
निर्मापयिष्यामि इत्युक्ते निर्मापयतु इति वदामि. णिच्कृत्य मेक् सम्बडि बिल्ड् इति अर्थे निर्मापयिष्य. सः स्वयं न निर्मापयति, अन्यान्
बिग् हौस्
हि विल् हाव् द हौस् बि बिल्ट् लैक् दट्.
तदा ब्राह्मणः स्वयम् आगत्य सुन्दरं वधू मह्यं दास्यति
इति सः चिन्तयति. सम्यक्. सो अत्र अहं किमपि वक्तुम् इच्छामि. अत्र धेनुः द्वितीया विभक्ति बहुवचनं तत्र पश्यति. धेनु अस्ति विसर्गः एव भवति. अत्र महिषीः अपि स्त्रीलिङ्ग, अतः द्वितीया विभक्ति ईः एव विक्रिय महिषीः. परन्तु अश्वः इति अस्ति चेत् द्वितीया विभक्ति नकारः भवति, अश्वान् इति भवति. तान् अत्र ताः स्त्रीलिङ्गे ताः विक्रीय, पुल्लिङ्गे तान् अपि विक्रीय यथेष्टं धनं सम्पादयति. बृहत्
महिषी इत्युक्ते किं?
महिषी इत्युक्ते बफलो, महिषासुरमर्दिनी इति अस्ति खलु.
So this Ashwan is Pumlingam?
Ashwah, Ashwan. Denu Strilinga, Mahishi Strilinga. Atah Taha itukte Denuhu Vikriya Mahishihi. Taha Mahishihi Vikriya Ashwan. Taan Ashwan Vikriya Yateshtam Dhanam Sampadeshyami. Yateshtam Dhanam. Yateshtam itukte Yat Avashakam Tatopi Adhikam. Brihat Griham. गृहं नपुंसकलिङ्गं बृहत् नपुंसकलिङ्गं निर्मापयिष्यामि. तदा कश्चित् ब्राह्मणः, कः ब्राह्मणः न जानीमः, कश्चित् कोऽपि अन्य कोऽपि कोऽपि ब्राह्मणः अपि अपि समानमेव भवति. सो अत्र चित् चन वयं जानीमः खलु, चित् चन इति अस्ति चेत् अनिश्चयतार्थक अर्थः इत्युक्ते ब्राह्मणः आगच्छति इत्युक्ते ब्राह्मणः आगच्छति. कः ब्राह्मणः, तस्य नाम किं, कुतः न जानीमः, कश्चित् ब्राह्मणः. परन्तु चित्चन इति स्थाने अपि इति अपि वक्तुं शक्नुमः वयं. सो अत्र कः अपि ब्राह्मणः इत्युक्ते कोऽपि एवं भवति. सो अत्र अ अस्ति, अतः अवग्रहचिह्नं लिखामः. कोऽपि ब्राह्मणः आगच्छति इति अर्थे, कश्चित् ब्राह्मणः आगत्य रूपवतीम् इत्युक्ते सुन्दरीं, सुन्दरीं स्वकन्यां, स्वस्य पुत्री, स्वस्य पुत्रीं मह्यं दास्यति. अस्तु, उत्तमं. प्रश्नः अस्ति वा? अस्तु, श्रीनिवास महोदय.
आं भगिनि, अनन्तरं मम पुत्रः जनिष्यति, देवशर्मा इति तस्य नामकरणं करिष्यामि. यदा सः जानुभ्यां चलितुं समर्थः समर्थः भविष्यति तथा अहम् अश्वशालायां पुस्तकं पठिष्यामि यदा देवशर्मा जानुभ्यां शलन् मम समीपम् आगन्तुम् उद्युक्तः भविष्यति तदा तं बालं गृहीतुं तस्य मातरम् आज्ञापयिष्यामि यदा सा मम वचनं न श्रोष्यति तदा अहं कोपेन पादप्रहारेण तां दण्डयिष्यामि इति So put it in a nice English word, thing is that building castle in the...
Daydreaming. Anantaram.
Okay. Saha chintitva sochayati.
Chintayati.
Saha chintayitva.
चिन्तयित्वा मीन्स् लैक् आफ्टर् थिङ्किङ्ग् इति अर्थः खलु
फर्दर् थिङ्किङ्ग् वाट् यु से देट्
अग्रे फर्दर् अग्रे चिन्तयति
सः अग्रे चिन्तयति तस्य पुत्र पुत्रस्य नाम पुत्रस्य नाम पुत्रस्य एक्टिविटीस्
चलनं
पुत्रस्य चलनं पठनं क्रीडनं क्रीडनं विषये चिन्तयति
अस्तु
क्रीडनाति विषये चिन्तयति
एकदा लैक् यदा अत्र एव विषयः आरम्भः यदा
सः जानुभ्यां जानु मीन्स् नी रैट्
नी जानुभ्यां
तदा अहम् अश्वशालायां पुस्तकं पठिष्यामि अश्वशालायां मीन्स् इट्स् गोट् दिस् वन् हार्स् शेड्
हार्स् शेड् करेक्ट्
ओके सः चिन्तयति यदा तस्य पुत्र जानुभ्यां चलनम् आरम्भं करोति तदा अश्वशालायां फार् हिम् तस्यार्थं पुस्तकं पठिष्यामि इति
अत्र बालकस्य कृतेन सः एव पठिष्यति
रीड् इट् फार् हिम् दट् वाट् ट्रीट्मेण्ट् ऐ बिलीव्
नाट् फार् हिम् तस्य अश्वशालायां सः पठिष्यति
प्रोबब्लि इस् जस्ट् ट्रैङ्ग् टु शो आफ् हि हेस् अ हार्स् शेड् मीनिङ्ग् हि सो रिच् सो हि विल् गो रीड् इन् द हार्स् शेड्
किड् मूविङ्ग् इन् द नीस् केनाट् बि रीडिङ्ग्
नो this brahmanaha wants to show off that he has a horse shed so he'll go sit there so that the child will come to him
but he doesn't want a child to come hello
that becomes the next thing
it's given there no bagini deva sharma janubhyam chalan mama samipam
We are in the first line only. We are still in the Patishyami line only.
वदतु महोदय, यदा सः जानुभ्यां चलितुं समर्थः, वदतु,
यदा सः जानुभ्यां चलितुं समर्थः भविष्यति तथा अहम् अश्वशालायां पुस्तकं पठिष्यामि. ओके, गोट् इट्. देन् द नेक्स्ट् थिङ्ग्, तदा देवशर्मा जानुभ्यां चलन् मम समीपम् आगतुं उद्युक्तः भविष्यति. पठितुं समये पुत्रः मम समीपम् आगतुं प्रयत्नं करोति.
सम्यक्, प्रयत्नं करोति.
प्रयत्नं करोति.
उद्युक्तः मीन्स्
उद्युक्तः मीन्स् he gets ready to do that. Yeah, prayatnam karot udyog.
Tada tam balam grihitum tasya mataram agyapayishyami. Yadi putram mama samipam agatum prayatnam karoti tarhi saha tasya mataram तस्य मातरस्य उक्तवान् बालं गृहीतुं जानाति. बालं गृह्णातु यदि मम पत्नी मम वचनं न शोष्यति तदा कोपेन पादप्रहारेण दण्डिष्यामि इति. सो ही विल किक हर. ओके,
किक हर. अस्तु, अत्र कठिनपदानि अस्ति वा सन्ति वा इति पश्यामि. अत्र जानुभ्यां द्विवचनं जानु इति नपुंसकलिङ्गपदं, परन्तु भ्यां जानुभ्यां चलितुं समर्थः. समर्थः इत्युक्ते शक्नोति इति. जानुभ्यां चलितुं शक्नोति, यः चलितुं शक्नोति सः समर्थः अस्ति. कुशलः अपि अन्यपदम् अस्ति. चलितुं कुशलः, समर्थः, स्त्रीलिङ्गमस्ति चेत् समर्था इति भवति. सा समर्था अस्ति इति. समर्थः भविष्यति तदा अहम् अश्वशालायां पुस्तकं पठिष्यामि. तदा देवशर्मा जानुभ्यां चलन्, सो अत्र शत्रुप्रत्यय, लैक् प्रसेण्ट् कण्टिन्यूस्, चलन् मम समीपम् आगन्तुम् उद्युक्तः, सिद्धः अस्ति. गेटिङ्ग् रेडि, प्रयत्नं करोति इति. तदा तं बालं ग्रहीतुं मातरम् आज्ञापयिष्यामि. सेम् लैक् निर्मापयिष्यामि. ऐ विल् गिव् दि आर्डर् टु लैक् दट् इति. आज्ञां ददामि इति अर्थे. अहं मात्रे आज्ञां ददामि अथवा अहं मातरं वदामि, हे बालं ग्रहीतु गृह्णातु इति. ग्रहीतु न, गृह्णातु इति. आज्ञां दास्यामि, मात्रे आज्ञां दास्यामि अथवा मातरम् आज्ञां करोमि, बालं गृह्णातु इति. यदा सा मम वचनं न शोषि तदा अहं कोपेन पादप्रहारेण, इत्युक्ते किकिङ्ग्, पादप्रहारेण, पादकन्दुकम् इति अस्ति खलु तादृश, पादप्रहारेण दण्डयिष्यामि. अहं दण्डनं करोमि इति.
भगिनि, वन् क्वश्चन्, वेन् हिस् चैल्ड् स्टार्ट्स् क्रालिङ्ग् इस् गोयिङ्ग् टु गो टु द हार्स् शेड् टु रीड् इस् इट्? हव् ऐ गाट् दट् करेक्ट्लि?
फार् हिम्सेल्फ्, या.
सो हि इस् गोयिङ्ग् टु गो अण्ड् रीड् इन् द हार्स् शेड्.
आम् आम्. अस्तु, उषा भगिनी,
यस्,
अधिकं नास्ति, परन्तु अन्य कोऽपि वक्तुम् इच्छति चेत्.
एवं चिन्तयन् सः पादप्रहारं कृतवान् एव. पिष्टेन पूर्णः घटः पतितः भग्नः च. एवं चिन्तयन् सो हि आक्चुलि किक्ड्
अत्र चलन् इति शत्रु प्रत्यय अस्ति खलु लैक् वैल् क्रालिङ्ग् द बाय् इस् कमिङ्ग् इति जानुभ्यां चलन् मम समीपम् आगन्तुम् इत्युक्ते अत्र अपि चिन्तयन् वैल् थिङ्किङ्ग्
सः पादप्रहारं कृतवान् एव. I do not make it more simpler than that.
Yeah, yeah. Shintamast.
Pishtena purnaha ghataha patitaha.
Pishtena
purnaha ghataha patitaha.
You can add adaha patitaha.
Adaha patitaha bhagnaha cha.
Bhagnaha abhavat.
Abhavat, okay. Bhagnaha means destroyed.
Broke,
I see. What's the verb there? Bhagna?
The gadam broke.
Yeah. Bhagnati. Bhagnaha. Bhagnaha abhavat. So, atra shlokaha asti.
Can I do that?
Vadat.
Just read it. Anagatavatim chintam asambhavyam karoti yaha स एव पाण्डुरः शेते देवशर्मपिता यथा. अनागतवतीं चिन्तां देट् विच् हेस् नाट् इवन् हेपेण्ड् असम्भाव्यां द इम्पासिबल्
सम्यक्
डस् द इम्पासिबल् अनागतवतीं चिन्ताम् असम्भाव्यां करोति यः
महाभारते किमर्थं तस्य नाम पाण्डुः इति हि इस् वेरि पेल्
श्वेते इस् लैन् डौन्
श्वेते
देवशर्मपिता यथा इट्स् लैक् दट् करोति स एव I didn't understand the meaning here.
Astu. Anagatavatim. So, agatavatim, it happened. Anagatavatim. So, which is not happened. Anagatavatim chintam. Chintam, something is not happening. Asambhavyam, it is impossible. Sambhavyam, asambhavyam. Which is impossible.
Anagatavatim asambhavyam chintayati.
करोति सः यः सः अत्र यः सः यः असम्भाव्याम् अनागतवतीं चिन्तां करोति आक्चुलि चिन्तनं करोति सः एव शेते देवशर्मपिता यथा पाण्डुरः अस्ति तथा इति
कनेक्षन् पाण्डुरः शेते देवशर्मपिता यथा
So, we can take a literal meaning. So, atra Panduraha pale. So, Pishtaha fell on him and he became white. That is a literal meaning. Paranto anya asti, taha chintayati, that was his treasure, right? That the Pishta gataha. So, he hung it up. He said, this is going to be my salvation. एतत् विक्रिय अहम् अधिकम् धनं स्वीकृत्य अहम् एतत् करोमि एतत् क्रीणामि इति तत् सर्वं गतम् अतः सः ज्ञातवान् मम भविष्यत्कालः गतः इति देन् हि बिकेम् पेल् बिकास् आफ् डिसपायिण्ट्मेण्ट् तादृशगतिः आगतः इति तादृशगतिः आगता इति असम्भाव्याम् अनागतवतीं चिन्तां मा करोतु इति
देवशर्मपिता यथा
या बिकास् हि डजन्ट् इवन् हेव् अ नेम् दिस् फादर् देवशर्म पिता, देवशर्मणः पिता. इन् द स्टोरि ही डजन्ट् हेव् अ नेम्, ही सो वि काल् हिम् ओन्ली बै द सन्स् फादर् लैक् दट्. देवशर्मणः पिता, देवशर्मन् इति नाम, मूलपदम् इस् देवशर्मन्, सो इट् बिकम् देवशर्मणः पिता. अस्तु, प्रश्नः अस्ति वा, अन्य कोऽपि वक्तुम् इच्छति वा किमपि?
This is like Vrindavana Tilorandi.
Ah, Vrindavana
Tilorandi.
Nandavana Tilorandi, not Vrindavana Tilorandi.
Oh, Nanda, Nandavana Tilorandi.
Oh, sorry, Nandavana
Tilorandi. Interesting. अग्रे गच्छामः. विभक्तिवल्लरी, वयम् अन्तिमपुटे स्मः. अहं चिन्तयामि आगामि वर्गे अथवा किमपि वा वयं गीतासोपानं प्रति गच्छामः इति. अतः एव अहं कथां स्वीकृतवती. किमर्थम् इत्युक्ते सम्भाषणकौशलं भवतु इति. अस्तु, अहं चिन्तयामि दशपर्यन्तं कृतवन्तः इति. अस्तु, सुलभः एव अस्ति, वयम् अग्रे अग्रे गच्छामः. अस्तु, राधा, अस्तु, सागरी भगिनी आरम्भं करोतु, वयं करोतु कृपया.
राधा पत्रं लिखति. राधा सख्यै,
सख्यै
पत्रं लिखति.
पत्रं लिखति. सो अत्र किम् अस्ति मुख्यविषयः इत्युक्ते सप्त चतुर्थी विभक्ति अस्ति सख्यै. सो केवलं ददाति एव न, भावमपि दृष्ट्वा एव चतुर्थीविभक्तिरूपं. कस्याः कृते, फार् हू सेक् इति. सख्यै पत्रं लिखति, सख्यै प्रेषयितुं पत्रं लिखति. अस्तु, अग्रे
अग्रजेन इस् तृतीया, अनुजम् इस् द्वितीया.
सम्यक्, द्वितीया तृतीया, सम्यक्.
So it won't come because only chaturthi is proper for this sentence.
For example, anujam patram likati api, we can make it work. Anujam patram likati. Parantu sati is better. Vadatu?
Dvitiya vibhakti samyak va in this vakyam.
अहं चिन्तयामि बेटर् फिट् इस् सख्यै. सख्यै कस्य कृते, फार् हूस् बेनिफिट्, टु गिव् फार् होम् इति. सख्यै पत्रं लिखति.
एतानि पुस्तकानि ददातु. ददातु अस्ति चेत् चतुर्थी विभक्ति आगच्छति. एतानि पुस्तकानि बालिकाभ्यः.
सम्यक्, बालिकाभ्यः. सो अत्र रूपमेव सम्यक् नास्ति खलु, बालिकेभ्यः न भवति, बालकेभ्यः भवति. बाल
बिकास् केभ्यः इस् पुंलिङ्गं,
पुल्लिङ्गम् अथवा नपुंसकलिङ्गम्.
And balikan also is pullingam. I mean, you use it, kan is used for balakan, it will come like that.
Balakan. So, atra api, rupam samyak nasi.
Samyak nasi.
So, ataha, this was easy. Dadatu asti chet balikyabhyaha eva, samyak. Astu, Parameshwar Mahodaya, agree.
नमः इति भक्ताः वदन्ति. देवीं नमः इति भक्ताः वदन्ति.
अत्र नमः आगच्छति चेत् अपि चतुर्थी विभक्ति खलु.
ओके,
पुनः पुनः पश्यतु महोदय.
देव्यै
देव्यै नमः
इति भक्तार वदन्ति.
देवीम् इति वदामः चेत् द्वितीया विभक्ति भवति. देवायै इति रूपं सम्यक् नास्ति. देवाय एव भवति. अग्रिममपि करोतु.
प्रातः उत्थाय अहम् उत्थाय गेट् अप् फार्वर्ड्
उत्थाय
अहं नमामि. प्रातः उत्थाय अहं देवायै नमति और देवं नमति.
देवं नमामि.
देवं नमामि.
अत्र वेदं पश्यतु. नमः इति वदामः चेत् देव्यै इति चतुर्थीविभक्तिरूपं. नमामि इति वदामः चेत् द्वितीया विभक्ति. अत्र देवाय चतुर्थी विभक्ति, परन्तु नमः अस्ति चेत् एव देवाय देवायै रूपं सम्यक् नास्ति. अस्तु शारदा भगिनि.
दिनेशः भगिन्यै क्रुध्यति.
भगिन्यै क्रुध्यति. क्रुध्यति एतादृशपदम् आगच्छति चेत्
चतुर्थी विभक्ति.
असूयति एतादृश
ईष्यति.
सम्यक्.
वयं दुर्जनेभ्यः भीताः स्मः. यस्य भीतः भवति तस्य पञ्चमी विभक्ति भवति.
यस्मात् भीतः. भगिनी वदतु.
No, I was telling use panchami for bhitaha and I'm doing it.
Vadu, punah vadu chamyata.
No, Bhagini, I said, I was telling that it should come as panchami and I'm telling it wrong. Yasmat, I'm saying
shashti.
Yasya.
Yasmat bhitaha bhavati tasya padasya panchami vibhakti bhavati. Samyata. Tasya padasya. अस्तु अग्रे श्रीनिवास महोदय.
आं भगिनि. श्रीकृष्णः द्रौपदीं रक्षितवान्. द्रौपदीं फ्रम् प्लूरल् गौरवेभ्यः रक्षितवान्.
सम्यक्. कौरवेभ्यः रक्षितवान्.
गौरवैः इस् तृतीया विभक्ति अण्ड् गौरवान् इस् द्वितीया विभक्ति.
कौरवान् कौरवैः तत्र न भवति. भीतः रक्षः इति पदम् आगच्छति चेत् पञ्चमी विभक्ति. पञ्चमी विभक्ति. अस्तु अग्रिममपि करोतु.
मित्रः मित्र श्रुते अन्यं कं शरणं गच्छामि. प्रथमा वदति भवतः श्रुते अन्यं
भवतः किमर्थम् इत्युक्ते पञ्चमी षष्टि समानरूपम् भवतः इस् षष्टि विभक्ति. भवतः नाम किम् इति अस्ति खलु. भवतः ऋते इति पदम् एक्सेप्ट् फार् इति अर्थे वेरि स्ट्राङ्ग्. एक्सेप्ट् फार् भगवान् इति एक्सेप्ट् फार् भवान् इति अर्थे. भवतः अन्यं कं शरणं गच्छामि. भवता विभक्तिका भवता तृतीय विभक्ति भवता इति पदस्य विभक्ति का तृतीया विभक्ति भवते इति पदस्य विभक्तिः
सप्तमी
चतुर्थी
भवते
भवति इस् सप्तमी भवति भवति मम विश्वासः अस्ति इति अस्तु उषा भगिनी अग्रे
कार्यक्रमं कार्यक्रमे कार्यक्रमस्य समाप्तेः अनन्तरम् अहम् आगतः समाप्तेः
अनन्तरम् इस् द कीवर्ड् हियर् अनन्तरम् अस्ति चेत् का विभक्ति
कार्यक्रमं समाप्तेः अनन्तरं
सो इट् इस्
कार्यक्रमस्य समाप्तिः
कार्यक्रमस्य समाप्तेः अनन्तरम् इति पदम् आगच्छति चेत् षष्ठी विभक्ति कार्यक्रमस्य अनन्तरं कार्यक्रमे विभक्तिका कार्यक्रमे
चतुर्थी
सप्तमी कार्यक्रमे कार्यक्रमं
द्वितीया
कार्यक्रमस्य समाप्तम् इत्युक्ते समापनं पूरणं पुस्तकस्य समापनं समाप्तं भवति पुस्तकस्य समाप्तं भवति किं
समाप्तेः
षष्टि
समाप्तेः
समाप्तेः समाप्तेः अनन्तरम् एतस्य पुस्तकस्य समाप्तेः अनन्तरं गीतासोपानं पुस्तकं प्रति गच्छामः
कार्यक्रमस्य षष्टि समाप्तेः षष्टि
अनन्तरम् ऐ विल् गो बै अनन्तरम् अस्तु भगिनि अग्रे अग्रिममपि करोतु
भोजनवस्तूनि सन्ति पाकशाले
पाकशाला इति रूपं खलु पाकशाला
पाकशालायां भोजनवस्तूनि
पाकशालायां
पाकशाले इस् दट् षष्टि
No, this is also Shaptami, parantu rupam is not correct. Hello, Pakashala, asite Pakashalayam eva rupam samyakavati. Pakashalayam, Pakashalayah vipaktika?
Shashti.
Shashti apicha panchami. Gauvati samana, panchami shashti. Pakashalayam. Anya kopi asti va, keteki bhagini sa agatavati gatavati va? अन्य कोऽपि नास्ति चेत् सागरि भगिनि अग्रे
भगिनि अहम् अस्मि भगिनि सविता
ओ नाम लिखितव नाम न लिखितवती अस्तु सविता भगिनि वदतु धन्यवादः
भोः सः मिथ्यावादी अतः मा विश्वसितु भोः सः मिथ्यावादी अतः तस्मिन् मा विश्वसितु
सम्यक् विश्वासम् अस्ति चेत् तस्मिन् सम्यक् तस्मिन् मा विश्वसितु विश्वासं मा करोतु तस्मिन् विश्वासं मा करोतु विश्वासः मा सो अत्र विश्वासः इति भवति विश्वासः मिथ्यावादी इत्युक्ते लायर् तम् इति पदं विभक्तिका तं
द्वितीया एकवचनं
द्वितीया तस्मै
तं कौतां तस्मै ताभ्यां चतुर्थी
चतुर्थी सम्यक् अस्तु अग्रे अग्रिममपि करोतु
भीमः बकासुरं डेश् गृहीतवान् भीमः बकासुरं उदरं गृहीतवान् गृहीतवान्
उदरे इति भवति. So if you are hitting or holding somebody in which part of the body you are holding, that takes the saptami vibhakti.
I took pakasuram. Okay.
Pakasuram is the dvitiya. Udare. Pakasuram udare prakritavan.
Prakritavan.
Udaram dvitiya udaraya.
Chaturthi. बहुवचनं भगिनि
एकवचनम् उदराय एकवचनं उदराय उदराभ्याम् उदरेभ्यः
उदरम् इति नपुंसकलिङ्गपदम्
आम् आम् उदरम् अन्य कोऽपि अस्ति वा bagini I think you lost one thing right one krama you want to do some more
yes bagini I'll try
adati
dash mahati bhubuksha khalu mama dash mahati bhubuksha khalu mama
amba. So here amba samyak
amba mahati bhubuksha khalu mama
because aashcharya chinnam asti
yes.
अस्तु अन्यत् अपि करोतु
सम्बोधन
एकां कथां कथयतु तावत् द मिडल् वन् भगिनी एकां कथां कथयतु तावत्
कथयतु तावत् अस्तु अस्तु अग्रे सागरी भगिनी एकमेव करोतु
अरविन्द मा गच्छतु तत्र
अरविन्द मा गच्छतु तत्र अस्तु परमेश्वर महोदय
जनाः सञ्चारं कुर्वन्ति जनाः लोकयानात् जनाः लोकयानात् सञ्चारं कुर्वन्ति
लोकयानात् इत्युक्ते लोकयानात् बहिः गत्वा सञ्चारं कुर्वन्ति
ओके सो जनाः लोकमान्ये लोकयानैः
लोकयानैः सो अत्र वाहनम् अस्ति चेत् तृतीया विभक्ति विमानेन गच्छामि कार्यानेन द्विचक्रिकया लोकयानेन अत्र बहुवचनमस्ति लोकयानैः अस्तु शारदा भगिनी
आं भगिनि रुक्मिणी राधायै असूयति
राधायै एतादृश दुर्भावः अस्ति चेत् चतुर्थी विभक्ति राधां पश्यति राधां वदति परन्तु असूयति अस्ति चेत् राधायै राधायाः भीता
तृतीया
राधायै इस् चतुर्थी खलु राधायै चतुर्थी राधां द्वितीया राधायाः
पञ्चमी
पञ्चमी अपि षष्टि अग्रिमं बहु सुन्दर अभ्यासः किमर्थम् इत्युक्ते दोषः अस्ति वयं समीकरणीयम् अस्माभिः समीकरणीयम् अतः दत्तेषु वाक्येषु प्रतिवाक्यम् एकः विभक्तिदोषः अस्ति दोषयुक्तं शब्दं रेखया अङ्कयित्वा वाक्यस्य अन्ते आवरणे शुद्धं शब्दरूपं लिखत सो अत्र प्रति इति अस्ति चेत् वाक्यं प्रतिवाक्ये इति तावत् शुद्धं नास्ति वाक्ये दोषः अस्ति परन्तु प्रति इति पदं योजयामः चेत् प्रतिवाक्यम् एव शुद्धं प्रतिवाक्यम् अस्ति. अस्तु, माता पुत्रीन् आह्वयति. सो अत्र पुत्रः इति अस्ति चेत् पुत्रान्, पुल्लिङ्ग बहुवचनं द्वितीयविभक्ति नकारः अस्ति, परन्तु स्त्रीलिङ्गे नकारः न भवति, विसर्गः एव भवति. माता पुत्रीः आह्वयति इति. अस्तु, अत्र कस्य पर्यायः? सविता भगिनि खलु, सविता भगिनि. अहम्
अहम् अद्य लेखन्यः आनीतवती. अहम् अद्य लेखनीम् आनीतवती.
सो अत्र बहुवचनम् अस्ति, लेखन्यः इति भवती लेखनीम् इति उक्तवती, तत् सम्यक् एव, एकवचनं, बहुवचनं आवश्यकम्.
अहम् अद्य लेखन्याः आनीतवती.
सो अत्र स्त्रीलिङ्गे मूलरूपं लिखित्वा विसर्गः
लेखनी मूलरूपं लेखनी
मूलरूपं लिखित्वा विसर्गं
विसर्गः लेखनीः. अहम् अद्य लेखनीः आनीतवती.
लेखनीः आनीतवती
आनीतवती
सम्यक्. अस्तु, अन्य कोऽपि? उषा भगिनी कृतवती खलु, न वा? रुक्मिणी असूयति.
अहं न
करोमि. अस्तु, भवती करोतु.
पाचकः छुरिकायाः शाकानि कर्तयति. छुरिकायाः न सम्यक्. पाचकः छुरिकेन,
छुरिका इति अस्ति हस्तः, हस्तेन.
ओके, सो इट् इस् स्त्रीलिङ्गं छुरिका. छुरिका छुरिकायाः वाट् इस् द तृतीयः? इट् हेस् टु बी
द्विचक्रिकया गच्छति. द्विचक्रिका द्विचक्रिकया गच्छति.
छुरिकया
छुरिकया
छुरिकया शाकानि कर्तयति.
शाकानि कर्तयति. अस्तु, श्रीनिवासमहोदय अपि न कृतवान्. क्षम्यताम्
श्रीकृष्णः चक्रात् जराचन्दं मारितवान्. चक्रात् इस् पञ्चमी, पञ्चमी इस् राङ्ग्, षड्भिः तृतीया. चक्रेण जरासन्दं मारितवान्.
सम्यक्, चक्रेण जरासन्दं मारितवान्. अस्तु, सागरी भगिनि.
आं भगिनि,
चक्रेण सह
कोऽपि वदति वा?
भगिनि, वन् स्माल् डौट्. श्रीकृष्णः चक्रेण मीन्स् सः श्रुतवान्
न? सो अत्र साधनम् अस्ति चेत् चक्रेण एव, परन्तु श्रीकृष्णः सपोसिङ्ग् राधा अस्ति चेत्, राधा गच्छति, श्रीकृष्ण अपि गच्छति, देन् राधया सह गच्छति. इफ् ओन्लि वन् पर्सन् इस् डूयिङ्ग् संथिङ्ग् देन् साधनम्. इफ् टु पीपल् आर् डूयिङ्ग् देन् सः.
ओके, ओके,
अस्तु, सागरी भगिनि.
पिता पुत्र्याय धनस्यूतं दत्तवान्. पुत्र्याय इस् राङ्ग्. इट् शुड् बि चतुर्थी बिकास् दत्तवान् इस् कमिङ्ग्. पुत्र्यै
पुत्र्यै सम्यक्, पुत्र्यै पुत्र्यै
or it can be changed to putraya also, right?
Yeah, we can make it putraya also, but I think it is putri.
Can it not be putrikaya?
No. Putrika iti asti chet rupam putrikayai. Putrikayai.
Okay.
अस्तु अग्रे परमेश्वर महोदय किमर्थं
किमर्थं भवान् तं विश्वसितवान् ऐ थिङ्क् देट् इस् करेक्ट् किमर्थं भवान् तं विश्वसितवान् करेक्ट् इस् देर् एनी चेञ्ज् हलो
अहं चिन्तयामि अस्ति वा नास्ति किमर्थं भवान् तं विश्वासं सप्तमी परन्तु एतादृशपदं त्वान्तपदम् अस्ति चेत् द्वितीया विभक्ति इति अपि अस्ति खलु साधारणतया विश्वासम् अस्ति चेत् सप्तमी विभक्ति खलु अतः तस्मिन् विश्वसितवान् एव सम्यक्
किमर्थं भवान् तस्मिन्
विश्वसितवान् सो अत्र त्वान्तपदं यवन्तपदं तादृशं नास्ति सो अतः तस्मिन् विश्वसितवान् विश्वासम् एतादृशपदम् अस्ति चेत् सप्तमी विभक्ति सो अत्र अपि वयं दृष्टवन्तः खलु विश्वसितु इति अस्ति चेत् सप्तमी भवति द्वितीया न भवति सप्तमी एव भवति तस्मिन् विश्वसि तस्मिन्
इन् तमिल् इट् इस् वेरि ट्रिकि आक्चुलि
वेरि ट्रिकि
बिकास् इन् तमिल् वेन् ऐ से तं अवनै
अवनै
इफ् यु पुट् इन् सप्तमी इट् इस् अवनिल् बोत् आर् ब्राड्लि द सेम् मीनिङ्ग् यु ट्रान्स्लेटेड् इन् तमिल् दट्स् आर् द प्रोब्लम्
अस्तु अग्रे शारदा भगिनि
दन्तानां विना चर्वणं न शक्यते विना अस्ति चेत् द्वितीया तृतीया पञ्चमी सो
दन्तानां रूपं किं
षष्टि बहुवचनं
षष्टि सो षष्टि
अशुद्धम् दन्तान् विना दन्तैः विना दन्तेभ्यः विना
दन्तेभ्यः विना दन्तान् दन्तैः दन्तेभ्यः विना चर्वणं न शक्यते अस्तु श्रीनिवास महोदय दन्तान् दन्तान् बट् विना अस्ति चेत् दन्तान् दन्तैः दन्तेभ्यः आल् त्री विना अस्ति चेत् तथा भवति
दन्तान् विना
दन्तान् विना दन्तैः विना दन्तेभ्यः विना विकल्पाः भवति विकल्पत्रयम् अस्ति त्री आप्शन्स् अस्तु
भवतः सः कः आगतवान् सः मीन्स् तृतीया शुल्कं भवतः सः केन आगतवान्
न न दिस् हेस् टु चेञ्ज् द विभक्तिरूपं हेस् टु चेञ्ज्
भवतः
नाम किं दट् इस् एदर् पञ्चमी आर् षष्टि भवतः. So,
we should get to tritiya there.
So it is bhavata.
Bhavata.
Bhavata
saha
kaha agatavan. Bhavata saha kaha agatavan. Astu, Usha Bhagini.
It is not kaha, should not be changed to this one.
No, no, no. Only the vibhakti should change. Bhavata saha kaha agatavan. उषा भगिनी
सर्पेण भीतः सः पलायितवान्
पलायितवान् मीन्स् ही रान् अवे एस्केप् लैक् रन्निङ्ग् अवे फ्रम् अ सिचुवेशन् पलायितवान् सो भीतः अस्ति चेत् विभक्ति का
पञ्चमी
पञ्चमी सो सर्पेण इति
सर्पेण भीतात्
सर्पेण इति पदस्य विभक्तिरूपेण
तृतीया विभक्ति नास्ति
नास्ति अतः
सर्पात्
सर्पात् सम्यक्
सर्पः
सः पलायितवान्
सर्पेण
सर्पात्
भीतः सः पालयितवान् पलायितवान्
पलायितवान् अस्तु सो अत्र दे आर् गिविङ्ग् क्लू मारितवान् एनिवे अस्तु विश्वसितवान् विना सः भीतः इति अस्तु सविता भगिनि
छात्र कोलाहल अलम्
अलम् अलम् इति अस्ति चेत् विभक्ति का ततः पूर्वम् Bhagini, vadatu, I cannot hear.
You had mentioned about alam, but I am unable to recollect.
Astu, astu. Tritiya vibhakti, avashyaka. Tritiya vibhakti, avashyake. Kola halaha iti asti. Tritiya vibhakti, katam bhavati.
Kola
halena. Kola halena. Samya. कोलाहलेन अलं छात्राः कोलाहलेन अलं स्टाप् इति स्टाप् इति अर्थे अर्थे भवति अस्तु सागरी भगिनी
आं भगिनि किमर्थं छात्राः अध्यापकस्य परितः स्थिताः सन्ति
परितः इति पदम् अस्ति चेत्
द्वितीयम् अध्यापकं किमर्थं छात्राः अध्यापकं परितः स्थिताः सन्ति
स्थिताः सन्ति सम्यक् परमेश्वर महोदय
एतत् युतकं भवान् कति रूप्यकेषु क्रीतवान् एतस्य युतकं
किमपि
एतत् युतकं
अत्र वयं किमपि क्रीणीमः चेत् कति रूप्यकाणि दत्त्वा क्रीणीमः तस्य तृतीया विभक्तिरूपं भवति
एतत् युतकेन भवान् कति रूप्यकेषु क्रीतवान्
अत्र कथं परिवर्तनं भवति अत्र
युतकं
रूप्यकेषु इति पदस्य परिवर्तनं करणीयम्
एतत् युतकं भवान्
रूप्यकैः रूप्यकैः
एतत् रूपकं भवान् कति रूप्यकैः
क्रीतवान् इति तृतीयाविभक्तिरूपं भवतु तत्र. अस्तु, शारदा भगिनी अग्रे.
निस्थानतः अहं त्रिचक्रिकायाम् आगतवान्. त्रिचक्रिकया आगतवान्.
त्रिचक्रिकया आगतवान्. अस्तु अस्तु, अग्रे श्रीनिवास महोदय.
अयि लक्ष्मीः भक्तानां प्रिय खलु भवति. संबोधनं शुड् बि चेञ्ज् भगिनि.
सम्यक् सम्यक्.
अयि लक्ष्मी
विसर्गं ऐ लक्ष्मी सम्यक्. ऐ लक्ष्मी सम्यक्.
ऐ लक्ष्मी भक्तानां प्रिया खलु भवति.
भक्तानां प्रिया खलु भवति. सम्यक्. अस्तु, उषा भगिनि.
सम्बोधनः
सो अत्र सम्बोधना अपि अस्ति विभक्ति, अत्र अपि अस्ति विभक्ति. भक्तानां प्रिया तत्र सम्यक्. अस्तु, अत्र पश्यतु भगिनि. उषा भगिनि,
कस्य वा रोचते एषः कार्यक्रमः?
सो अत्र रोचते इस् द की वर्ड् हियर्. रोचते अस्ति चेत् विभक्ति का? चतुर्थी विभक्ति.
इट् शुड् बि ओर्
इट् शुड् बि. कस्य इति षष्ठी विभक्ति, तत् सम्यक् नास्ति. कः इस् एक प्रथमा विभक्ति
एकवचनं.
न चतुर्थी एकवचनं वदतु.
चतुर्थी एकवचनं
तस्मै तस्मै श्रीगुरवे नमः. अत्र कस्मै वा रोचते एषः कार्यक्रमः? इस् दिस् प्लीसिङ्ग् टु एनिबडि?
कस्मै वा रोचते एषः कार्यक्रमः?
सविता भगिनी अन्तिमं कृत्वा समापयामः. मयि
क्रुध्यति चेत् कः लाभः भवतः? मयि क्रुध्यति चेत् कः लाभः भवतः? नो ऐडिया भगिनि.
मयि मीन्स् सप्तमी विभक्ति खलु. मयि कथं भवति अत्र? सो क्रुध्यति इति भवति चेत् वि हाव् टु चेञ्ज् टु चतुर्थी विभक्ति. मयि इस् सप्तमी विभक्ति. चतुर्थी विभक्ति कथं भवति अस्मद् शब्दस्य? मह्यं
क्रुध्यति चेत् कः लाभः भवति? I didn't really know this thing.
Yeah, okay. So we will stop here and then we will continue next time. Astu. Dhanyavadaha. शान्तिमन्त्रम् उक्त्वा ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति हरिः ओम् गुरुभ्यो नमः बहु धन्यवादः पुनर्मिलामः
धन्यवादः भगिनी
धन्यवादः
धन्यवादः भगिनी
धन्यवादः
सार्वी केन काल् मी